अथ नीतिशतकम्। दिक्कालाद्यनवच्छिन्ना अनन्तचिन्मात्रमूर्तये स्वानुभूत्येकमानाय नमः शान्ताय तेजसे। बोद्धारो मत्सरग्रस्ताः प्रभवः स्मयदूषिताः अबोधोपहताश्चान्ये जीर्णमंगे सुभाषितम्। वरं पर्वतदुर्गेषु भ्रांतं वनचरैः सह न मूर्खजनसंपर्कः सुरेन्द्रभवनेष्वपि। जयन्ति ते सुकृतिनः रससिद्धाः कवीश्वराः नास्ति येषां यशः काये जरामरणजं भयम्। स्वायत्तमेकान्तगुणं विधात्रा विनिर्मितं छादनमज्ञतायाः विशेषतः सर्वविदां समाजे विभूषणं मौनमपण्डितानां। साहित्यसङ्गीतकलाविहीनः साक्षात् पशुः छविषाणहीनः तृणं न खादन्नपि जीवमानः तद्भागधेयं परमं पशूनाम्। येषां न विद्या न तपो न दानं ज्ञानं न शीलं न गुणो न धर्मः ते मर्त्यलोके भुवि भारभूताः मनुष्यरूपेण मृगाश्चरन्ति। अधिगत परमार्थान् पंडितान् मावमंस्थाः तृणमिव लघुलक्ष्मीर्नैव तान् संवृणद्धि। अभिनवमधलेखाश्यामगण्डस्थलानाम् न भवति बिसतन्तुर्वारणं वारणानाम्। अम्भोजिनीवन विहारविलासमेव हंसस्य हन्ति नितरां कुपितो विधाता नत्वस्य दुग्ध दीर्घजलभेदविधौ प्रसिद्धां वैदग्ध्यकीर्तिमपहर्तुमसौ समर्थः। जाड्यं धियो हरति सिञ्चति वाचि सत्यम् मानोन्नतिं दिशति पापमपाकरोति चेतः प्रसादयति दिक्षु तनोति कीर्तिम् सत्सङ्गतिः कथय किं न करोति पुंसाम्। व्यालं बालमृणालतन्तुभिरसौ रोद्धुं समुज्जृम्भते छेत्तुं वज्रमणिं शिरीशकुसुमप् प्रान्तेन सन्नह्यते माधुर्यं मधुबिन्दुना रचयितुं क्षाराम्बुधेरीहते नेतुं वाञ्छति यः खलान् पथि सतां सूक्तैः सुधास्यन्दिभिः। शक्यो वारयितुं जलेन हुतभुक्षत्रेण सूर्यातपो नागेन्द्रो निशिताङ्कुशेन समदो दण्डेन गोगर्दभौ व्याधिर्भेषदसङ्ग्रहैश्च विविधैर्मन्त्रप्रयोगैर्विषम् सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम्। केयूराणि न भूषयन्ति पुरुषम् हारा न चन्द्रोज्ज्वलाः न स्नानं न विलेपनं न कुसुमं नालङ्कृता मूर्धजाः वाण्येका समलङ्करोति पुरुषं या संस्कृता धार्यते क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणं इति श्रीभर्तृहरेः नीतिशतकोद्धृतश्लोकाः।